हरि ओम। हिरण्यवर्णां हरिणीं सुवर्ण रजतस्रजां चंद्रां हिरणमयीं लक्ष्मीं जातवेदो मावहा। ओम ताम आवह जातवेदो लक्ष्मीमनपगामिनी यस्याम हिरण्यं विन्देयं गामश्वं पुरुषानहं। ॐ अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनी श्रियं देवीमुपभये श्रीर्मा देवी जुषताम्। ॐ कांसोस्मिताम् हिरण्य प्राकाराम् आर्द्रा देवीम् ज्वलन्तीम् तृप्तान्त पर्यन्तीम् पद्मे स्थिताम् पद्मवर्णाम् तामिहोप भये श्रियम्। ॐ चंद्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदारां तां पद्मिनीं मीं शरणमहं प्रपद्ये लक्ष्मीर्मे नश्यतां त्वां वृणे। आदित्यवर्णे तपसोधिजातो वनस्पतिस्तव वृक्षोथ बिल्वः तस्य फलानि तपसानुदन्तु मायांत रायाश्च बाह्या अलक्ष्मीः। ॐ उपयितु मां देवसखाः कीर्तिश्च मणिना सह प्रादुर्भूतो सुराष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातु मे। क्षुत्पिपासां मलां ज्येष्ठां अलक्ष्मीं नाशयाम्यहम् अभूतिम असमृद्धिं च सर्वान् निर्णुदमे गृहात्। ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणी ईश्वरीं सर्वभूतानां तामिहोपभये श्रियम्। ॐ मनसाः काममापूतिं वाच सत्यमशीमहि पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः। ॐ कर्दमेन प्रजाभूता मयि संभव कर्दमा श्रियं वासय मे कुले मातरं पद्ममालिनी। ॐ आपस्त्रिजन्तु स्निग्धानि चिक्लीत वसमे गृहे निच देवी मातरं श्रियं वासय मे कुले। ॐ आर्द्रां पुष्करिणीं पुष्टिं पिंगलां पद्ममालिनीं चंद्रां हिरणमयीं लक्ष्मीं जातवेदो मावहा। ॐ आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीं सूर्यां हिरणमयीं लक्ष्मीं जातवेदोम आवहा ॐ तां मावह जातवेदो लक्ष्मीं मनपगामिनी यस्याम हिरण्यं प्रभूतं गावो दास्यो श्वान विन्देयं पुरुषानहम् ॐ यः शुचिः प्रयतो भूत्वा जुहुयादाजमनवहम् श्रियः सूक्तं पञ्चदशरचं च श्रीकामः सततं जपेत् ॐ पद्मानने पद्मिनी पद्मपत्रे पद्मप्रिये पद्मदलायताक्षी विश्वप्रिये विश्वमनोनुकूले त्वत्पाद पद्मं मयि सन्निधस्त्व पद्मानने पद्म ऊरु पद्माक्षी पद्मसंभवे तन्मे भजसि पद्माक्षी येन सौख्यं लभाम्यहम् अश्वदायी गोदायी धनदायी महाधने धनन्मे जुषतां देवी सर्वकामांश्च देहि मे पुत्रपौत्रं धनं धान्यं हस्त्यश्वादि गवेरथं प्रजानां भवसी माता आयुष्मन्तं करोतु मे धनं अग्निः धनं वायुः धनं सूर्यो धनं वसुः धनं इन्द्रो बृहस्पतिः वरुणं धनमस्तु मे वैनतेय सोमं पिब सोमं पिबतु वृत्रः सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः न क्रोधो न च मात्सर्यं न लोभो नाशुभामतिः भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत् सरसिजनिलये सरोजहस्ते धवलतरांशुक गन्धमाल्यशोभे भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरे प्रसीदमह्यम् श्रीवर्चस्वम् आयुष्यम् आरोग्यम् आविधात् शोभमानं महीयते धान्यं धनं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॐ महालक्ष्म्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो लक्ष्मीः प्रचोदयात् विष्णुपत्नीं क्षमां देवी माधवीं माधवप्रियां लक्ष्मीं प्रियसखीं देवीं नमाम्यच्युतवल्लभां आनंद कर्दमः श्रीदश्चिक्लीत इति विश्रुताः ऋषयश्च श्रियः पुत्रामयी श्रीर्देवी देवता।